ॐ गणानान्त्वा गणपतिगुं हवामहे कविं कवीनामुपमस्त्रवस्तमो ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनसृण्वन्नोतभिः सीदसादनो श्रीमहागणाधिपतये नमः महासरस्वत्यै नमः हरिः वो ॐ दक्षं जोरावृणेमहे गातुं यज्ञाय गातुं यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिघातु भेषजम् सन्नो अस्तु द्विपदे सिञ्चतुष्पदे ॐ शान्तिश्चान्तिश्चान्तिः सहस्रशीरुषा पुरुषः सहस्राक्षः सहस्रपात् स भौमं विश्वतो हृत्वा अत्यधिष्ठद्दशाङ्गुलम् पुरुष एवेदगं सर्वं यद्भूतं यश्च भव्यम् उतामृतत्वश्चेशानः यदन्नेनातिरोहते एतावानश्च महिमा अतोऽध्यायागोश्च पौरुषः पादोश्च विश्वाभूतानि त्रिपादस्य अमृतं दिवे त्रिपादोर्ध्वधै पुरुषः पादोऽस्येह भवात्मनः ततो विश्वन्यक्रामतो तहसनासने अभे तस्माद्विराडजायत विराजो अधिपुरुषः सजातो अस्यरिश्चत पश्चात् भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीराज्यम् ग्रीष्म यद्मः शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त सविध कृताः देवा यज्ज्ञम् तन्वानाः अबद्धं पुरुषं पशुं तं यज्ञं वरीषि प्रोक्षन् पुरुषं जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्च ये तस्माज्जज्ञाः सर्ववतः संवृतं वृषधाज्यम् पशो गुस्तागुश्चक्रे वायव्यान आरण्यान् ग्राम्याश्च ये तस्माज्जज्ञाः सर्वहुतः अच सामानि जज्ञरे छन्दागुंसि जज्ञरे तस्मातो यजोस्तस्मादजायत तस्मादस्वा अजायन्त ये केचोभयाततः गावोह जज्ञरे तस्मात् तस्माज्जात अजावयः यत्पुरुषं व्यधदुः कतिधा व्यकल्पयन् मुखं किमस्य कौ बाहु का भोरोपादा उच्येत ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यः कृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुं सोद्रो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् श्रेष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश स्तोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु भारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यथास्ते धाता पुरस्ताद्यमुदा जहार चक्रप्रविद्वान् प्रदितश्च दस्रः तमेवं विद्वानमृत इह भवते नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूतपृथिव्यैरसाश्च विश्वकर्मणः समवर्तताधे तस्य त्वस्तापि तद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत ह्यः भवते नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधापि जायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मन् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वसे ह्रीश्च ते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनो व्यातम् इष्टम् मनिषाण अमुम् मनिषाण सर्वम् मनिषाण तच्छं योरावृणेमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् सन्नो अस्तु द्विपदे सञ्चतुष्पदे ॐ शान्तिश्चान्तिश्चान्तिः।